ईसा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रभाषकः ध्रुव भट्टराई। राष्ट्रपति विद्यादेवी भण्डारी आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत् समानम् प्रतिनिधि सभाया प्रदेश सभानम् च सदस्यानम् निर्वाचनम् भयरहिते वातावरणे स्वच्छम् स्वतन्त्रम् निष्पक्षम् च भविष्यतीति विश्वासम् व्यनक्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने राष्ट्रपति भण्डारी ह प्रमुख निर्वाचन युक्तेन पदाधिकारीभिश्च सह विहिताय मेलवार्ताया क्रमे निर्वाचनस्य व्यवस्थापनाय पूर्व कार्याच आयोगेन प्रदर्शितम् क्रियाशीलताम् प्रति सन्तोषम् प्रकटयन्ति। भयरहिते वातावरणे स्वच्छम् स्वतन्त्रम् निष्पक्षम् च निर्वाचनम् कारयितुम् आयोगेन सर्वे प्रयत्न विधीयन्ते इति विश्वासम् अभिव्यनक। असौ निर्वाचनस्य निष्पक्षतावलम्बनस्य विषयः न केवलम् आयोगस्यैव अपितु राजनैतिक दलानाम् प्रत्याशिनम् सम्बद्धानाम् सर्वेषाम् पक्षाणाम् समुदायस्य च कृतेऽपि अस्तीति हेतोः सर्वेषाम् सहयोगेन समन्वयेन अन्तर्सम्बन्धेन च निर्वाचनम् सम्पत्स्यते इति विश्वासम् व्यक्तवती। मेलनी प्रमुख निर्वाचन युक्त दिनेश कुमार थपलिया निर्वाचन से व्यवस्थापन पूर्व कार्य प्रवृत्तीना निर्वाचन स्वच्छ स्वतंत्र निष्पक्ष रूपेण संपादयितुम आयोगेन विधेयमानानां कार्यान्वयन विषय अज्ञापयत। आगामिनो मार्गशीर्ष मासस्य चतुर्थी दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभाया प्रदेश सभानां च सदस्यानां निर्वाचनस्य प्रचार प्रसारयो क्रमे गतदिवसात् प्रारब्धस्य जनयात्रा जनसभा कूडसभानाम् आयोजन चरणस्य सन्दर्भे निर्वाचन आयोगेन दलानां प्रत्याशिनां च व्ययस्य अनुगमनं प्रारब्धं वर्तते। आचार संहिताय अनुसारेण निर्वाचनस्य प्रचार प्रसारयो कृते जनसभा कूडसभानाम् आयोजनस्य क्रमे मञ्चस्य सज्जीकरणाय व्ययीभूतस्य वित्तस्य विवरणस्य सम्बद्ध प्रतिनिधिना स्वयमेव प्रतिनिधिर्वा माध्यमेन मतदान सम्पन्नताय पञ्चदश दिनानाम् अभ्यन्तरे निर्वाचन कार्यालय प्रस्तुतिर्व्यवस्था स्थिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल अवोचत। आयोगेन प्रत्याशी राजनैतिक दलैश्च एतद्वैक्रमाद्य निर्वाचनाचार संहिताय पालनपूर्वकम् निर्धारिताय सीमाय अभ्यन्तरे स्थित्वा वित्तम् व्ययीकृतम् नवेति निरीक्ष्य आचार संहिताया 240 प्रकरणस्य अनुरूपम् आयोगे विवरणम् प्रस्तुतम् गृहमन्त्रालयस्य माध्यमेन नेपाल प्रहरीले राष्ट्रियानुसन्धान विभागाय च दायित्वम् दत्तमस्ति। प्रधानमन्त्री शेरबहादुर देउवा कथयति संविधानस्य रक्षायै नैर्वाचनिकम् गठबन्धनम् निर्मितम् वर्तते। वाम लोकतान्त्रिक गठबन्धनेन डडेलधुरा जनपदे ह्य आयोजिताम् नैर्वाचनिकम् प्रथम सभाम् सम्बोधयन् प्रधानमन्त्री देउवा राष्ट्रिय विशिष्ट परिस्थित्या उत्पन्नस्य राजनीतिक समीकरणस्य कारणेन पञ्चदलीयम् गठबन्धनम् एकीभूय निर्वाचनम् प्रतिस्पर्धमानम् अस्तीति स्पष्टीकृतवान्। वर्ष पञ्चगावधि कार्यकालस्य मध्ये एव संसदम् विघटय्य संविधानस्य ध्वस्तीकरणस्य कार्यस्य विरूद्धे पञ्चदलीयम् गठबन्धनम् निर्मितमिति प्रधानमन्त्री देउवा समस्पष्टयत्। नैर्वाचनिक सभायाम् नेकपा माओवादी केन्द्रस्य स्थायी समिति सदस्य खगराज भट्ट कांग्रेस दलस्य नेता गोविन्द राज बोहरा च संविधानस्य रक्षायै नैर्वाचनिकम् गठबन्धनम् विधेयम् अभूदिति बाध्यता सर्वै स्वीकर्तव्येति बलम् दत्तवन्तौ। प्रधानमन्त्रिणा देउवा विधस्य डडेलधुरा जनपदस्य सप्तसु एव स्थानीय स्तरेषु अद्यतन नैर्वाचनिक सभासु सम्बोधनस्य कार्यक्रमो वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड आगामी निर्वाचनम् सामान्य निर्वाचन मात्र न मन्तुम् नेत्री कार्यकर्तृन् अनुरोधि। राजधान्यम् गतदिने आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड अवदत् आर्थिक समृद्धिर्माध्यमेन जनमनस अभिजयम् यावत् राजनीतिक परिवर्तनम् सबलम् न भविष्यति। नेकपा समाजवादी दलस्य अध्यक्ष डाक्टर बाबुराम भट्टराई अकथयत् जनताय संघर्षात् प्राप्तानाम् उपलब्धीनाम् रक्षायै परिवर्तनकारी शक्त्या एकत्र आगन्तव्यम्। माओवादी केन्द्रस्य वरिष्ठ उपाध्यक्ष नारायणकाजी श्रेष्ठ अगदत् राजनीतिको उपलब्धीनाम् संस्थागति कारकम् संविधानम् क्रियान्वय राष्ट्रम् आर्थिक समृद्धिर्मार्गे नेतव्यम्। गृहमन्त्री बालकृष्ण खाँड भाषते जनताया संघर्षेण स्थापितस्य संघीय लोकतान्त्रिक गणतन्त्रस्य विपक्षी शक्तीनाम् गठबन्धनेन राष्ट्रम् पश्चगमनम् प्रतिनेष्यते। ह्य भैरवस्थाने आयोजिते तरुण प्रशिक्षण कार्यक्रमे मन्त्री खाँड परस्परम् भिन्न विचार सिद्धान्तवत दलत्रयस्य गठबन्धनम् पश्चगामी वर्तते येन च गठबन्धनेन देश सञ्चालयितुम् न शक्यते इति न्यश्चिनत्। मन्त्री खाँड राष्ट्रियताया संरक्षणेन राष्ट्रम् अग्रगमनस्य दिशा अग्रे पञ्चदलीयम् गठबन्धनम् निर्मितमिति स्पष्टीकृतवान्। संचार सूचना प्रविधि मन्त्री विधि मन्त्री च ज्ञानेन्द्र बहादुर कार्की वदति आगामिनो मार्गशीर्ष मास च चतुर्थे दिवसे सम्पत् समानम् प्रतिनिधि सभाया प्रदेश सभानाम् च निर्वाचनम् राष्ट्रस्य भाग्यस्य भविष्यस्य च निर्धारकम् वर्तते। सुनसरी जनपदस्य भोक्रा नगरसिम्ह ग्राम पालिकाया सप्तवडा क्षेत्री पूर्वविद्यु आयोजित कार्यक्रमे मन्त्री कार्की अवोचत् राष्ट्रस्य भाग्यस्य भविष्यस्य च निर्धारणस्य दायित्वं जनतायं सन्निहितं वर्तते। मन्त्री कार्की सर्वकार निर्माणस्य अपेक्षापि आन्तरिकतां सुदृढीकर्तुं राष्ट्रियकतां संरक्षितुं च गठबन्धनम् आवश्यकमस्तीति धारणां व्यक्तवान्। भिन्न प्रसंगे मन्त्री कार्की प्रतिवर्षं जायमानाय जलमग्नताया समस्याया समाधानाय सर्वकारण सुनसरी खोलिकायं तटबन्धन निर्माणस्य प्रक्रिया अग्रे वर्धापितेति अज्ञापयत्। अद्य हरिबोधनी एकादशी हिन्दू धर्मावलम्बी भगवत विष्णु पूजा आराधना पुरस्सरम व्रतोपवासादेवी समाद्रियते। पौराणिक कथनानुसारेण पुरा मुरनाम्नो दैत्यस्य आतंकात् देवान् मोचयितुं भगवता विष्णुना महान् संघर्षो विहितः। संघर्षावधौ विश्रान्तिम् अधिगन्तुं बदर्याश्रमे स्थितां हयवती गुहाम् एत्य निद्रितस्य श्री विष्णु शरीरात् उत्पन्नया परमसुन्दर्या कन्या घातितस्य मुरदैत्यस्य शरीरम् पृथिव्यां ससदम् निपतितम्। तस्मादेव शब्दात् हरि उत्थित इति घटना स्मरणे अस्मिन् दिने हरिबोधनी एकादशी सम्मान्यते। अपर पौराणिक मान्यता अनुसारेण आषाढ़ शुक्लस्य एकादश्या हरिसैनिता कार्तिक शुक्ल हरिबोधनी एकादशी पर्यन्त मास चतुष्टयं यावत् भगवान विष्णु शेष शयनम् आश्रयति। अस्मिन् अवधौ विहितं चातुर्मास्यानुष्ठानं सातिशयं फलदायी भवतीति विश्वस्यते। अनुष्ठानमेत च अस्मिन्नेव दिने समाप्तिमेति। परम्पराया अनुसारेण आषाढ़ शुक्लस्य एकादशीं रूपितानां तुलसी विरुधाम् अस्यां तिथौ विशेषेण पूजन पूर्वकं स्व अनुष्ठानस्य उद्यापनं विधीयते। संघीयता क्रियान्वयन ध्यानानुगमन संसदीय विशेष समित्या 59 सूत्रीय परामर्श सहितं प्रतिवेदनं ह्य राष्ट्रिय सभा अध्यक्षाय गणेश प्रसाद तिमलसेना विधेयाय अर्पितमस्ति। प्रतिवेदनेन संघस्य प्रदेशानां च मन्त्रालयानां संख्यां न्यूनीकर्तुं संघीय स्तरस्य विभागानां संघे विद्यमानां च कर्मचारिणां संख्याय अर्धं न्यूनीकरणेन विधिगतां नीतिगतां च व्यवस्थां विधातुं च परामृष्टं वर्तते। प्रतिवेदनं गृह्णन् राष्ट्रिय सभा अध्यक्ष तिमलसेना अब्रवीत् प्रतिवेदनं संसद सम्पत्ति वर्तते यस्य क्रियान्वयनं सर्वकारस्य दायित्वं भवति इति समाचारः।